नमस्ते, पुनः वर्गं प्रति स्वागतम्। इतः परं वयं प्रतिसप्ताहम् एकं श्लोकं पठामः अथवा पठाम। इतः परं प्रतिसप्ताहं वयम् एकं श्लोकं पठामः। अधुना द्वितीया विभक्तिः का इति सर्वैः ज्ञायते, अतः इतः परं निश्चयेन एकं श्लोकं पठामः। वाक्यं स्पष्टं किल? वाक्यं स्पष्टं उत्तमम्। अधुना पठतु कोऽपि प्रथमा कः अस्ति अद्य तु? अस्तु, कौसल्याजी, न कौसल्याजी, कौसल्याजी वा, एकनिमिषं, क्षम्यताम्, अद्य अस्ति रविजी, पठतु कृपया।
वचसा चरन्ति वदामि
वदामि
वदामि शम्भोरु अहम् उद्योग विदासु ते
विदासु
विदासु ते प्रसक्तुः
ते ते प्रसक्तः ते अप्रसक्तः इति ते अप्रसक्तः
ते अप्रसक्तः मनसा मनसा कृतिम् ईश्वरस्य सेवे शिरसा चैव सदाशिव नमामि सदाशिवं नमामि।
अयं श्लोकः शिवानन्दलहरितः स्वीकृतः अस्ति। अस्तु, श्लोकम् एवं भवति। वचसा चरितं वदामि शम्भो अहम् उद्योगविधासु ते अप्रसक्तः मनसा कृतिम् ईश्वरस्य सेवे शिरसा चैव सदाशिवं नमामि इति श्लोकः। अस्मिन् श्लोके एकं क्रियापदं स्पष्टतया अस्ति। किमस्ति तत् क्रियापदम्?
नमामि।
नमामि, उत्तमं, नमामि। सो नमामि इति अस्ति इत्यस्मात् स्पष्टं यत् अहं नमामि। कुत्रापि तत्र अहमिति पदं न स्यात् तस्मिन् वाक्ये, तथापि स्पष्टं यत् अहं नमामि। अस्तु, अहं नमामि, अहं कं नमामि?
शिवस्य, ईश्वरस्य।
उत्तमं, सदाशिवं नमामि, अहं सदाशिवं नमामि। अहं कं नमामि? अहं सदाशिवं नमामि। अहं सदाशिवं कथं नमामि इति प्रश्नः। अहं अन कथं नमामि? शिरसा नमामि, शिरसा। तत्र हलन्तपदमस्ति, यथा रामः अकारान्तपदं, राम अकारान्तपदं, लता आकारान्तपदं, तथैव शिरस् इति सकारान्तपदं, शिरस् सकारान्तपदमस्ति। शिरसा, शिरसा नमामि, तृतीया विभक्तिः अस्ति, शिरसा नमामि। अस्तु, अहं सदाशिवं शिरसा नमामि। तथैव प्रथमं वाक्यं पश्यन्तु सर्वे, वदामि, अहं वदामि, च एव, एव तत्र यथा उक्तं पूर्वम्, एव नाम एम्फसिस् अस्ति तावदेव, शिरसा नमामि, एव च एव चैव इति, च प्लस् एव। पश्यामः, तदपि पश्यामः किमिति, पश्यामः एकनिमिषं। प्रथमं वाक्यं पश्यन्तु सर्वे, तत्र कः अर्थः? वदामि, अहं वदामि, किं वदामि? चरितं नमामि, चरितं वदामि। कस्य चरितं? शम्भोः, शम्भुः, यथा शिवः षष्टि एकवचनं शिवस्य, शम्भुः शम्भोः, शम्भोः चरितं न वदामि, शिवस्य चरितं वदामि। कथं? वचसा, वचसा नाम वाक्, वाक् नाम वर्ड्स् इति अर्थः अत्र, वचसा नाम यूसिङ्ग् मै वर्ड्स् इति अर्थः। वचसा, वचसा चरितं वदामि, कस्य? शम्भोः, तथैव शिरसा सदाशिवं नमामि। एतावत् स्पष्टम्? तत्र स्पष्टता भवतु इत्यस्मात् अथवा लिखं शम्भोः इति एव तत्र, अस्तु, शम्भोः एव तत्र। शम्भोः चरितं वदामि. कथं वदामि? वचसा वदामि. सदाशिवं नमामि. कथं नमामि? शिरसा नमामि. एतावत् स्पष्टं किल? किमर्थम् अहं शम्भोः चरितं वदामि, शिवस्य चरितं वदामि, अहं सदाशिवं नमामि, किमर्थम् एवं करोमि अहं, किमर्थमहं करोमि? नाम सः वदति अहं ते ते अत्र ते अस्तु अत्र भीतिः मास्तु, अत्र ते नाम तव इति अर्थः. ते ते नाम तव इति अर्थः. अहं तव विधासु, विधासु नाम कार्यं, कार्यं विधा नाम कार्यं, कार्येषु कस्य केह नाम कीदृशकार्येषु? उद्योगकार्येषु. अहं तव उद्योगकार्येषु अप्रसक्तः. अप्रसक्तः नाम अनुभवः नास्ति, अहम् इनेक्स्पीरियन्स्ड् इति. समन् हु इस् इनेक्स्पीरियन्स्ड् इस् काल् अप्रसक्तः. ओके, अहम् अप्रसक्तः. कुत्र अहं कुत्र अप्रसक्तः? ऐ डोण्ट् हेव् एक्स्पीरियन्स्. खलु कुत्र? वेर् डु यु डोण्ट् वेर् डु यु नाट् हेव् एक्स्पीरियन्स्? तव उद्योगविधासु. तव उद्योगविधासु नाम स्पष्टं वा तत्र? तव उद्योगविधासु नाम उद्योगः नाम कः अर्थः?
जाब्.
जाब्
हा, हूस् हूस् जाब्? शिवास् न अहं तव शिवस्य, तव इत्युक्ते शिवः अत्र. अहं तव उद्योगविधासु अप्रसक्तः. अप्रसक्तः विधासु नाम कार्यं. तव उद्योगविधासु अहम् अप्रसक्तः. अतः अतः नाम देर्फोर् अहं किं कर्तुं शक्नोमि? वचसा चरितं वदामि, शिरसा तं नमामि. स्पष्टं वा एतावता?
स्पष्टं.
सर्वेषामपि स्पष्टता अस्ति वा अत्र? धन्यवादः. यस्य अत्र अन्म्यूट् कृत्वा अस्ति न जाने कः इति. अस्तु, तथैव अहं मनसा. अस्तु, अहं मनसा. कृतिं, कृतिं नाम कः अर्थः? कोऽपि जानाति वा कृतिं नाम? कोऽपि? कृतिः नाम कः अर्थः?
फुल् आर्
नो नो नो, कृतिः क्षम्यतां, मनसा आकृतिं. क्षम्यतां, सत्यं, कृतिः साङ्ग्. मनसा आकृतिम् अत्र, आकृतिः इति अस्ति. मनसा आकृतिम्, आकृतिं नाम कः अर्थः? आकृतिः नाम स्वरूपम्. अहम् ईश्वरस्य स्वरूपं मनसा सेवे नाम नमामि. सेवते दट् इट्स् अ डिफ्रेण्ट् कैण्ड् आफ् वर्ब्, डोण्ट् वरि अबौट् दट् टु मच् फर् नौ. सेवते मीन्स् सर्व् आर् नमामि, जस्ट् think of it like that for now, please. Okay, let's not get into why it is seve
akriti itukte
swarupam.
Swarupam,
the form.
Form iti artha satyam. Astu aham, so anvaya vakyam nama evam idam evam bhavati. Aham tava udyoga vidhasu aprasaktah asmi, atah aham शम्भोः चरितं वचसा वदामि, शम्भोः आकृतिं मनसा सेवे, अहं शिरसा सदाशिवं नमामि.
वचसा मीन्स् सेयिङ्ग्, रैट्?
यस्, सत्यं सत्यं. वाक् वचसा नाम वाक्. स्पष्टं वा?
Yeah, maybe can I try to tell that in English so that I know whether I understood it or not? Okay, so what the person is saying is, I am using my words to tell your shloka or praise you or whatever, because I am not experienced in doing puja or whatever for you. since I am thinking of, I'm thinking of your form, and Shirasa, I think I'm falling at your feet and then I'm praying.
Satyam.
This is what I understood.
Satyam. Shirasa namami. Satyam. Mm.
Okay.
But you need to also think that, you know, you have to say this sentence first. Because
of my inexperience.
Because I'm inexperienced, I'm doing first line, third line, and fourth line.
Oh, okay. Okay.
Shirasa means falling on my head, na?
No. Not falling on your head. You're using your head.
You're falling with your head.
Yes, Shirasa Namami.
You're going.
Like how you know you bend, right? You bend your head.
Yeah,
that's exactly what I mean. Shirasa Namami. Yes.
Yeah.
Whether you fall on his feet or not, that's, you know, sure. But that's what it actually means. Yes. Shirasa Namami. I bow down iti artha tatra tavadeva.
And is chaiva like always or?
Cha eva. So, cha there means end. I do vatasa charitam vadami. Manasa akritin seve. Shirasa namami. Cha means I do all these three artha. End.
Then why va comes there chai va? Va means me?
Eva.
No.
Eva means
cha eva. Eva means, like I said, emphasis only.
Oh,
this is all I can do. Because I can do that, this is all I can do.
Okay, got it.
And interestingly, the word English word apprentice seems to have come from this, right? Aprasataha, aprasataha. Looks like it's very similar to the word apprentice, which also means the same thing. Probably maybe. This is a...
I don't think so. That's aprasataha. I don't know. I think in Telugu also there is a word like that. That's why.
एतावता स्पष्टं वा श्लोकः स्पष्टः किल
वेरि नैस् थेङ्क् यु
सो दिस् इस् द 90th श्लोक फ्रम् शिवानन्दलहरि 90th श्लोक इफ् यु वाण्ट् यु केन् डेफिनेट्लि रीड् लेटर् अस्तु दृश्यते वा स्क्रीन् पुनः अस्तु अयं शङ्कराचार्यः अयं पुरुषः कः अयं शङ्कराचार्यः अस्तु शङ्कराचार्यस्य दक्षिणतः चन्द्रशेखरभारतीस्वामी अस्ति
Yeah, Shiva's picture, yeah.
Shiva's picture only, right?
Oh, you don't see my this thing?
No, I think Shiva Parvati, when I think that's why I said, he said, Shankaracharya and Dakshina.
How are you not seeing this photo?
Same picture again. We have seen Shiva family.
Shiva family. You're seeing Shiva's family?
Yes.
Yeah. That is what you're trying to show us? No, right? Shankaracharya picture you want to try to show us, right?
Shiva's family, that's fine too. Okay, that's fine too. Okay? I am Shiva Hasti. Astu? I am Shiva. Shivasya Dakshinataha Parvati Asti. Shivasya Dakshinataha Parvati Asti. शिवस्य वामतः आक्चुलि शि शुड् बि अन् द वामाङ्कासः बट् यु नो हौ वि आर् सीङ्ग् यु नो जस्ट् सो दक्षिणतः दिस् इस् अवर् रैट् अण्ड् दिस् इस् अवर् लेफ्ट् सो शिवस्य दक्षिणतः पार्वती अस्ति शिवस्य वामतः गणेशः अस्ति
दक्षिणतः वामतः इस् लेफ्ट् Dakshinataha is right.
Yes, but you know, depending upon how you are actually looking at the picture. For me, this is the right, right? That's right. That's what it's
all. Yeah. Oh, so but so Shiva is referring to the picture.
This depends upon how I see. Okay. You see where I'm getting at, right?
Well, if I say Dakshinataha, then you know.
Depends upon how you see. But sure, you know, if Shiva says that, the Mama is what he will say. If Shiva says that, Mama. When I am looking at the picture, what is my right side? Parvati will be on my right. That is how I am saying it. But if Shiva says that, he is going to say, Mama Vamataha Parvati Asti, Mama Dakshinataha.
Okay,
it's relative. Okay, so dakshinataha vamataha atra shashti vibhakti bhavati sarvada. Shashti vibhakti sarvada bhavati. Okay, mama vamataha, mama dakshinataha, natarajasya vamataha, natarajasya दक्षिणतः एवं रीत्या भवति. अस्तु, उदाहरणाय मम वामतः मम पुत्रः क्रीडति. मम वामतः मम पुत्रः क्रीडति. पुत्रः कुत्र क्रीडति? पुत्रः मम वामतः क्रीडति. पश्यतु, इट् इस् नाट् मम वामते. यु डोण्ट् यूस् सप्तमी हियर्. This is called avyayam. Avyayam. Avyayam means it doesn't change. It doesn't take a vibhakti form at all. Words that do not take any vibhakti forms are called avyayas. Vamataha. Mama vamataha. Putraha kridati. Mama dakshinataha sanganakam asti. मम दक्षिणतः सङ्गणकम् अस्ति. क्लियर्?
दक्षिणम् आल्सो मीन्स् सौत् रैट्? इवन् फार् सौत् वि यूस् दक्षिणम् रैट्?
यस्. वै दे काल् सौत्?
डैरेक्षन् पर्स्पेक्टिव्.
डु यु नो एनी वन्?
या, वेन् यु फेस् टु द सन् युर् रैट् सैड् इस् दक्षिणतः.
यस्.
दृष्टवत्.
यस्.
ओ okay. Ah, nice. Okay, very nice. Wow. Very nice. I never thought about it.
And questions? Prashna Hatantiva?
So Dakshinataha and Vamataha, they are the Vyayam, right? So they don't take any Vyavakti form, is what you said.
That is correct, yes. Yes. Okay. Good so far?
Sorry, Shekharji, what do we call them? We do not take any vibhakti form?
Avyayam. Avyayam.
Okay, thank you.
Avyayam. Can I proceed further?
Sure.
Yes.
Okay. Similarly...
How do I say, okay, go ahead? Yes or okay, go ahead? How do I say that?
Ashtu agre sarema. Ashtu agre sarema, tavadeva. अपि च अपरं वक्तव्यमस्ति अत्र यथा जनाः अन्यान् आह्वयन्ति तथा एवमीत्या शेखर्जी तथा जी इति सफिक्स् मास्तु तु केवलं सम्बोधने शेखर इति वदन्तु तावदेव पर्याप्तं शेखर्जी किमिति पद्मजा भगिनी एवं रीत्या वदन्ति चेत् आजीवनं सा एव भाषा तिष्ठति. Okay, don't prefix anything. Just call them by name. No, you don't feel disrespectful at all in any way. We're just practicing the language. So you need to know what the form in Sambodhana is. So if you keep saying Shekharji, all your life long you'll say just Shekharji or Raviji, so on and so forth. You will never know the Sambodhana form of Akaranta Pumlinga words. Is this clear? It's okay. You can call them by name.
Yeah.
In the class, outside, you know, however you want to, it's okay. But in the class, everyone, you know, don't say Shekharji or Natarajan or so on so forth. Nataraja, Shekhara, Ranga. You know, you will know the Sambodhana forms this way. Otherwise, you will never know the forms. Okay? Agresarem.
Okay. So it will be just Shekhar.
Shekhara.
But when we call Rama, we only say Ram.
Which is unfortunate, but you have to say Rama.
It's only like discrimination with Ram.
Rama, Tavadeva. Sambhodane Rama, not Ram. Samskrita Sambhodane Rama, Tata Bhavatu.
Okay.
Hmm? Yes, yeah. Uttam. Tathaiva Shivasya Purataha. Shivasya Purataha Nandishvaraha Asti. Purataha Shivasya Purataha Nandishvaraha Asti. Shivasya Prushtataha Prushta Prushtataha Parvataha Santi. Purataha Prushtataha Dakshinataha Vamataha.
Pushta means back side. And then Purataha means front side. Okay.
Sorry, what is back side?
Which is the third, you think? Is it the second third?
Ta. Prushtataha.
Purataha.
No, the Alpa Prana. Purataha.
Alpa Prana. Okay.
And front side.
Purataha, Prushtataha, Dakshinataha, Vamataha. अस्तु किमर्थम् अधुना एवं पृच्छामः चिन्तयन्तु वाक्यानि वदन्तु अधुना उदाहरणाय अहं वदामि अहम् अस्तु मम पृष्ठतः वृक्षः अस्ति मम पृष्ठतः वृक्षः अस्ति नटराजा शङ्कर युवां पश्यतम् वाक्यं स्पष्टं वा मम पृष्ठतः वृक्षः अस्ति अथवा बालकः क्रीडति किमपि भवतु नटराज शङ्कर युवां पश्यतम् इदं मम वाक्यमस्ति इदं मम वाक्यमस्ति अस्तु You can also ask someone to do the something. You can also ask them to do something. Like for example, Nataraja Shankara Mama Vamataha Upavishatam. Clear?
Yeah.
Evam Ritya Adhuna Bhavantaha Vakyani Vadantu. अथवा एवं रीत्या यूयं वाक्यानि वदत के सर्वदा भवान् सः त्वमिति न मध्यमपुरुष अथवा मध्यमपुरुषे द्विवचनमस्ति बहुवचनमस्ति तथैव प्रथमपुरुषे द्विवचनमस्ति बहुवचनमस्ति वदन्तु कृपया सर्वे आदौ रविम् उच्यताम् त्वमेव वद इस इट क्लियर और नो
व्हाट इज उपविशति
उपविशति कः अर्थः उपविशति
सिट
सिट डाउन
ओ ओके ओके गॉट इट सिटिंग डाउन उपविशति ओके आई एम गेट कंफ्यूज्ड आई थिंक यू सेंट अ लास्ट मैसेज राइट दैट्स समथिंग डिफरेंट राइट दैट्स अभिजाति ओके ओके
Oh, that is breed. That is
breed. That's right, yeah. I know, I got confused. You said last word, Upavishyati, that Abhijati. Okay, that's
breed, okay.
Yeah.
Adho kaha, Mahodaya,
Mahodaya, Avyaya Padam, can you give an example why this is Avyaya Padam?
Uttamam. Very, very, very good question. So, why is it called Avyam? If you look at any word, okay, like for example Rama, right? That word has a vibhakti, has a vachanam. Okay? It can be in Prathama Vibhakti, it can be in Vitiya Vibhakti, so on and so forth. At the same time, it can be in Ekavachanam, Dvivachanam, or Bahuvachanam. Take Kriyapada, for example. It can be in Prathama Purusha, Ekavachanam, Dvivachanam, Bahuvachanam. It can be in Madhyama Purusha, Ekavachanam, Dvivachanam, Bahuvachanam. It can be in Uttama Purusha, Ekavachanam, Dvivachanam, and Bahuvachanam. So any word that you see, right, it can either be in Vibhakti, it can have Vachana and Vibhakti if it's a noun, Namapadam. If it's a Kriyapadam, it can have Purusha and Vachanam. But Avyayam they don't have. They're free from these. That is why it's called Avyayam. It cannot have Vachanam, Vibhakti.
See, Vachanam, I get, so it doesn't make sense to have two south or three south or dual or plural south. But in terms of Vibhakti, though, I'm going to south, I'm coming from the south.
No, I didn't say south. I didn't say this is south.
Okay.
See, I said on my right side, on my left side, front to back, that's it. I didn't say north, east, southwest at all. Is that how everyone else understood this?
Yes.
So in the Lagu sheet that you put out there, there is one line which says air on all sides. So that is Sarvataha. Is that also an Avya?
Yes, that padam? Is also Sarvataha. It's also Avyayam. Yes.
Okay, thank you.
Yes, Sarvataha is also Avyayam. This is, I didn't mean, what is that, you know? I didn't mean the direction, like north is southwest. That's not what I meant. I meant on the right side, on his left side.
So all the Shashtis become Avyayam?
No. When you use Purataha, Prushtataha, Vamataha, Dakshinataha,
okay,
the word has been Shashti. Tavadeva. In Angla Bhashayam, if you question to survey, yeah, he is like the book is to the right of Evam Nicha Vadama Kila.
Mm-hmm.
That is why it is Shashti.
Basically, relationship, right? I mean, like,
yes.
Possessiveness, whatever you call it. Yeah.
Yes. It is okay. To the right of whom? Tadartam Shashti Tatra.
Sarvataha means everywhere, is it?
Everywhere. We will get to that again.
Okay.
Sarvataha, okay. Paritaha, there it has to be in Vitiya all the time.
Okay. Because yeah, earlier we read like Sarvatra also means everywhere, right?
Yes, Sarvatra, Tatra, all these are Avyayas, yes. Sarvatra, Atra, Tatra, Kutra, okay. Kada, Kimartham, all these are Avyayas.
Okay.
Shikati, is this correct sentence? Mama putri vamataha kridati.
Mama putri kasya vamataha. Mama vamataha.
Oh, okay.
So if you say she's playing to the left, right? My immediate question is, who's left?
Mama.
Mama vamataha.
Mama putri mama vamataha kridati.
Or, you know, I mean, colloquially, you know, you can say Mama Putri Vamataha. It's understood, sure, but it's good to actually use Shashti there. That's it. Spashtam va? Vakyani vaktum shaktu vanti va sarvya adhuna? Talhi vada krupayam ravi krupaya vada prathamam vakyam yatha uktam purvam udaharanaya punaha aham ekam vakyam vadami mama puratah balakah kridati ravi pashya idam mama vakyam tathaiva tvamapi aparam vakyam vada anyam kamapi ahaya.
Mama Dakshinaha
Dakshinataha
Dakshinataha, sorry. Mama Dakshinataha पुस्तकम् अस्ति.
न न मम दक्षिणतः पुस्तकमस्ति. Ask someone to see that or, you know, read it, something. Say something.
Mama dakshinataha pushtakam asti. Mama dakshinataha pushtakam asti.
Yeah, ask Ranga to read.
Sir. Ranga pushtakam pathami.
Yeah, no, no. Ranga pushtakam. You're asking him to read. Ranga. त्वं पुस्तकं
रङ्ग पुस्तकं पठामि.
पठ त्वं पुस्तकं पठ तावदेव.
मम दक्षिणतः पुस्तकम् अस्ति. रङ्ग त्वं पुस्तकं पठ.
वै इस् इट् इट्स् जस्ट् पठ दट्स् इट्
पठ दट्स् इट् पठ तावदेव.
Okay, it sounded like it has alpa virama at the end. So
no, it is patha, mahaprana thakara, patha.
Correct.
Patha, tavadeva.
Davitam pustakam patha.
Ajana, ranga, tvam, ekam vakyam vada, anju astikila, tam, ahvaya.
Mama purataha sanganakam nasti. What was the person? I lost
Anju track.
Anju.
Anju Bhagini Krupaya Paschata.
Krupaya Paschya?
Krupaya Paschya.
Paschya, tavade Paschatana. Ekame vakila. Ka eka avasti.
Paschya.
Krupaya Paschya.
Paschya.
Anantam. Adana Anju. Tava pariyayaha.
Shekharji, sorry, you wanted me to say something?
Satyam.
Hold on, I think, can you ask Rangaji, can you repeat that whole thing again, please? I'm sorry.
Ekane Shekharji, Ravi, Tadeva Vakyam Punaha Samskrutena Vada?
Ranga?
Vakyam?
Vakyam?
Punaha? वाक्यं पुनः वद. उत्तमं. रङ्ग कृपया वाक्यं पुनः वद.
मम पुरतः सङ्गणकम् अस्ति.
अस्ति ओर् अस्मि?
अस्ति. किं कृतं तेन अस्मि इति उक्तं वा?
सङ्गणकम् अस्ति.
ओ क्षम्यताम्, अस्ति एव सङ्गणकम् अस्ति. अञ्जु
अञ्जु अञ्जु महोदये कृपया पश्य.
कृपया पश्य. उत्तमम्. अधुना अञ्जु वाक्यं वद.
मम पुरतः पुष्पं विकसति.
कौशल्या
भगिनी पश्यति.
कौशल्या भगिनी पश्य तावदेव. अधुना कौशल्या भगिनी अस्ति वा?
गृहस्य पुरतः फलानि सन्ति. राम आनय.
राम आनय. उत्तमं. पश्यन्तु, गृहस्य पुरतः फलानि सन्ति. राम आनय. वाक्यं स्पष्टं वा?
What is that last word? Rama
आनयति. आनय आनयति. आनय लोट. आनयति आनय.
So what is the verb? आनय means?
आनयति. आनयति.
Sorry, I didn't understand. What is the anaya verb mean?
Bring.
Anayati means bring.
Oh, thank you.
Madhyama Purusha, Ekavachanam, anaya. Tvam anaya. So, Anantram Subhashini.
अनन्तरं नटराजन् अहमस्ति एव
न न अनन्तरं सुभाषिणीजी अम्बा अनन्तरं नटराजन्
ओ बिकास् इन् मै लिस्ट् ऐ एम् सीइङ्ग् आफ्टर् कौशल्य ऐ एम् सीइङ्ग् मै नेम् ओके ओके
कृपया वाक्यं वद
सुभाषिणी अस्मि मम वामतः वातायनमस्ति अम्बा भगिनी पश्य
अम्बा भगिनी पश्य अस्तु अनन्तरम् अम्बा भगिनी नटराजन्
निधानिकस्य वामतः निधानिकायाः निधानिकायाः वामतः भावचित्रम् अस्ति नटराजन् महोदय कृपया पश्यतु
नटराजन् शङ्कर्
ओके शकर ओपन् कथं वदामि ओपन्
उद्घाटयति
उद्घाटयति ओके मम वामत मम प्रकोष्ठे मम वामतः मम पृष्ठतः द्वारम् द्वाराणि सन्ति शङ्करः वाट् इस् द वर्ड् फार् ओपन् अगेन्
उद्घाटयति
ओके शङ्कर उद्घाटयति
न न शङ्कर
उद्घाटय
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 उद्घाटय तावदेव उत्तमं शङ्कर नन्दिनी
ओके मम दक्षिणतः द्विचक्रिका अस्ति भवती स्वीकरोतु
मम दक्षिणतः
द्विचक्रिका अस्ति भवती
स्वीकरोतु उत्तमं नन्दिनी पद्मजा
मम गृहस्य पुरतः वृक्षः अस्ति पद्मजा पश्य
उत्तमं पद्मजा वल्ली
मम दक्षिणतः चषके काफी अस्ति वल्ली पिब
उत्तमम् उत्तमं वल्ली पिब वल्ली ईश्वर
ईश्वर मम ओके ईश्वर मम पृष्ठतः कृष्णफलकम् अस्ति कृपया पश्य
उत्तमम् ईश्वर रवि वक्तुं शक्नोति वा भवान् पूर्वं कदापि न दृष्टं वर्गे ईश्वर इति कः इति न जाने
मम पुरतः सङ्गणकम् अस्ति
पश्य उत्तमम् उत्तमम्
शेखजी वन् क्वशन् सो वेन् वी से रवि पश्यतु और् अञ्जु पश्यतु शुड् वी से रवि पश्यतु और् रवि पश्य
सो इट् डिपेण्ड्स् अपान् वाट् यु वाण्ट् टु से सो इफ् यु से रवि पश्यतु इट् इस् इम्प्लिसिट् दट् यु आर् सेयिङ्ग् रवि भवान् पश्यतु इफ् यु से रवि पश्य इट् इस् इम्प्लिसिट् दट् यु आर् सेयिङ्ग् रवि त्वं पश्य दट्स् इट्
ओके सो वी केन् यूस् ईदर्
यस्
But I had a basic
question. Is that like a respect, no respect thing? Like Agya and Prardhana?
No.
however, well, I mean, you know, it depends upon your tone, right? It's a pasha. It's your ordering. It's a pasha. Requesting.
So, I had a basic question. Bhavan and Bhavati, so that literally translates to you, right? With respect, yes. But you. Why is it not Madhyama Purusha and why is it Prathama Purusha?
Anyone? We discussed this a long time ago. Anyone?
I might have missed it. Yep.
Anyone? Can anyone answer?
Bhavan means it comes as Prathama Purusha, and you, when you are saying you, then it is Uttama Purusha.
No, no, sure, but why is it so? Madhyama Purusha, not Uttama.
I mean, I'm sorry, Madhyama Purusha. Because you are just talking to that one person who is in front of you, and Bhavan means...
Same thing, right?
Yeah, good question actually.
So, Tvam, it has no gender. So when I'm looking at Natarajan or Shankar and I'm talking, if I say Bhavan, it means Tvam really. But Tvam is just, you know, it has no gender, that's it.
Okay,
just say calling someone Bhavan doesn't mean that, you know, you are giving him respect. No, just come out from that shell. No, it doesn't mean that at all. Okay, just
so
because you're saying, you know, Shankar Bhavan Pashyatu, or if you say Shankar Tvam Pashya, okay, just because you're using Tvam, it doesn't mean that, you know, you're treating him disrespectfully. No.
So Bhavan or Mahodaya, both will be same.
Mahodaya is more like
respect.
Kind of.
Okay.
Sure.
Like a mister or a sir kind of a thing, right?
Something like that.
Got.
In reality, we would use probably something like Sriman. But because that is a Nakaranta Padam, we tend to use Mahodaya, which is a Nakaranta Padam. That's it.
I have a question, back to basics, like, for Saha, we are supposed to use Tu, right? Like, Saha Patatu. But we, how do we use that in a sentence? Saha is like, or...
Udaharanaya, atha karyalaya bhavati, sarvatra. So, you have a group of people, you know, there's someone, let's say, for example, Shankar is supposed to do a work. He's not in the room. Okay? And Natarajan is your colleague, you're working with him. And say Natarajan says, Aham Karomi, I'll do it. Then you say, no, you don't do it. Shankar should do it. Shankar, Sahakarotu.
So the Ajna is not to the person who is there, but to the person somewhere else.
Yes. Sahakarotu, he should do it. He will do it. That's it. Whether he does it or not, that's a different story. Okay? When you say Sahakarotu, okay?
So it's like he should do it.
You want him to do, that's it. He shall do it. He should do it.
In the PDF that you shared in the class material, there were pictures in the first few pages. They were like a mom and a little kid. So mom was saying vada, ka, without the tu at the end. But then later pages... two people were in the same room, and there they were using Upavishatu, like because there was an elder person. How are they both different, and why are we using different ending?
That is just to give you experience. That's it. That is just to tell you that, you know, when you're using Tvam, it is Pashya. When you're using Saha or Bhavan, it is Pashyatu. That's it.
That is just for practice. Okay. So, for example, I just said, Padmaja Pashya, it's because I'm referring to Padmaja as Tvam. But if I said Padmaja Pashyatu, that means I'm saying Padmaja should look.
No. Hmm. Both mean the same. When you say Pashyatu, it just means Padmaja Bhavati Pashyatu. That's it.
Ah, okay.
There the word Bhavati is implicit. You just have to infer that word. That's it.
Oh, and when you say Pashya, then the word Tvam is implicit.
That's it.
Yeah. Okay.
So we have to know where we are using this lot. It's very, very important. Okay? when I say sahakarotu, okay, it's just, you know, I'm expecting him to do, or I want him to do. When I'm talking to him, I can say bhavan karotu. For example, if I say bhavan karotu, bhavan patatu, I'm asking someone to do that. Whether he does it or not, that's a totally different story. But if you know that a person is going to do that for sure, you say sahakaroti. In future tense, you know, you'll use a future tense verb, which is different. Let's not talk about that now. If I say sahakaroti, it means present tense. He is doing it this very minute. Sa adhuna karoti iti artha. Future. Sahakarishyati. We will discuss that later. Sahakarishyati means he will do it tomorrow. He's going to do it tomorrow. You know that. Sahakarotu. You want him to do it. Or you're asking him to do it. Whether he does it or not is a different story. Usually if I say sahakarotu, tvam ka, bhavan karotu, say tvam pashya. It happens in conversation usually. Clear?
Yes.
Oh, Shekharji, this is how I understand it. When we are using Madhyam Purush, it's Pashya, Likha.
Hmm.
But when we refer it as Pratham Purush, then it is Pashya Tu, Likha Tu, Pibat Tu.
Yes.
That so that's correct. How I have remembered it.
No, that is how you have to remember it. that is how you have to remember it.
Yeah. So that's why I was asking, when I say Ravi Pustakam Pathu, so it should be actually Ravi Tvam Pustakam Pathatu or Ravi Pustakam
Pathu. If I say Ravi Pustakam Patha, you actually said Ravi Tvam Pustakam Patha.
Like yes, I could use either.
Only when you're using Prathama Purusha, you need to know who the Karta is.
Hmm.
From Madhyama and Uttama, even though you don't specify Aham, Avam, Vayam, it's implicit. If I say khadami, it only means aham khadami. Whether you say khadami or you say aham khadami, it doesn't matter.
Okay. Yeah.
So, once we know all the verb tenses, like, is it in the regular language too, not slokas or anything, is it better to start dropping the first word like tvam or saha and just make sense out of it based on the way the verb is ending?
Yes,
then
definitely yes,
okay, even absolutely. In regular language, like, yes. Regular books and stories, that's how it's written. Yes, not just, yes. In slokas. Okay.
Yes Spashtam va?
Spashtam.
Okay, so we did a story. I don't know how many of you actually read it, so just to be safe, right, let's actually read the story once, or the conversation, whatever it is. Dashyate vasti nadhana?
Yes.
Adhana krupaya, padatu krupaya, Anju Bhagini?
Gaurabha, Hari Om, Mata,
Mataha,
Suprabhatam, Abhishekaha, Asti Kim. Abhishekaha, Aho, Gaurav, Agachatu, Swagatam. Gaurvaha, Danyavadaha, Abhishekaha, Swagatam, Panartham, Kim, Tadami, Chayam, Kafi, Dugdam, Gaurvaha.
Dugdham.
Gaurvaha. Kafi mastu, Chayam dadatu. Abhishekaha, Chayam anyati, Chayam svikarotu.
Tishta. Etata sarvam svashtam kila? Panartham, Kim dadami. Khadanartham, bhojanartham, panartham.
Panartham is to drink.
Liquid.
So, pibartham, we can say pibartham also?
No. No, you cannot say.
So here, panaka is the verb.
It's not the verb. It's a noun, right?
Noun.
Panartham. The word panartham is an avyayam. Panam. Pana means something that you drink.
So why should we not say just panam kim dadami? Why should we say panartham kim dadami?
Atra panartham nama. Okay, panam kim dadami means, okay. You, so what should I give you for drinking? Iti arthahatra, tavadeva. You just wouldn't say, you know, what liquid will I give you? What?
Okay.
Panam is actually a drink.
Oh, okay? Panam is just drink.
Okay. Panam is just drink. When you say panartham kim dadami, okay, you're just saying to drink, what can I give you? Iti arthahatra.
So if you use pibatu there, what you will use? If you want to use the pibatu,
how will you use pibatu?
If I give coffee to you, coffee pibatu, please drink coffee.
What is offering?
So yeah. Guys, I mean, hang on 1 minute. There's two ways you have to look at this sentence, okay?
Mm-hmm.
Like for instance, khadati. Khadati is a verb. What does it mean?
Eat.
So, pibati, what does pibati mean?
Drink.
Panam is the process is drinking. Pana means drinking. Pana means drink. You have two words there. Okay? Just like I say, dhavati, to run. Dhavanam, it's the noun form of dhavati, which is dhavana means running. Dhavanam, dhavati means run. Dhavanam means running. So if I say, for example, saha kim karoti, you can say saha dhavati or saha dhavanam karoti. He is doing running or he is running. Both mean the same. It sounds very weird in English because we don't say that. But in Sanskrit, it's a totally valid sentence.
Okay.
So aham khadami means I'm eating. I can also say aham khadanam karomi. I'm doing eating. So panam. Panam here means drinking. It's like the noun form, not the drink. Panartham king dadami.
So aham panam pibani. Aham panam pibani.
Yes, in that sentence, okay, two sentences. Good, thank you. Aham panam pibami means I am drinking some drink. Aham panam karomi, I am doing drinking. Means what is it? You are drinking something which is different. Clear?
Okay. Shankar, one more question. Should it not be Kim Dadani? Why is it Dadami?
Wonderful question. So, this is another form, you know, where you can, if that action is happening in the like next few minutes, right, immediately, you can say Dadami.
Okay. Or if I have to say, let me give you, then I can say,
Dadami, yes.
Aham panartham dadani. Mm-hmm. Let me give you. Okay.
Yes. Clear so far?
And dugdham means water, right?
No.
Milk.
No.
Milk.
Oh, milk. Dugdham is milk.
Dugdham atra milk iti artha. Kshiram.
Shekharji, again, this he is greeting him by saying Hari Om. Is it only specifically only for like is it a general word in Sanskrit or does it mean only related to Hinduism?
No, it's Hari a very Om. General. I mean, I honestly have seen only in recent books. I don't recall seeing Hari Om in not that, you know, I read a lot of literature. That's a different story. But from the little that I have read, I haven't seen Hari Om in, you know, in like the older texts, honestly. It could be there, I don't know, but I personally haven't seen it.
Or possibly it could be the preference of the person who wrote it also, right? Who overwrote this passage. Yeah.
Could very well be, yes.
So, kafi mastu.
Mastu.
Mastu. Means,
is it? mama na astu or is it is a short form of mama na, I don't want
negation na yatha nasti okay hmm. It's an in negative load you say ma mastu you never say nastu no
okay that's
example,
right. Example, okay nastu
pustakam asti pustakam asti pustakam nasti okay tathaiva kapi mastu kapi dadatu mastu means I don't want it na mastu don't iti artha
you but will you never say for liquid only or for anything
no when you want to negate something in lot lakara it always has to be ma mastu ma karotu ma dadatu ma pibatu ma svikarotu ma anayatu you will never ever say na anayatu na karotu no it's always ma ma karotu ma pibatu don't do it ma don't drink ma ma pibatu ma anayatu don't bring it ma anayatu ma gachatu don't go ma gachatu
so only for asti we should use na is it na asti
yes.
Only for asti
yes
or I am not your friend aham na
yes aham tava mitram na
aham tava mitram na asti okay
asti
and asmi we should use na okay
so Shekhar ji
nasti na satyam na tishtati he is not sitting here saha atra na upavishati but in lot you say ma that's it
oh
Shekhar ji I'm still confused this panam is a noun it is a thing it's a juice panam so pana artham means for
two meanings the panam means drink a liquid that you drink that is one meaning panam also means drinking
so why pibati is also piba is also drinking right
there's a process you know there's a prakriya so I just trust me and think panam no means drinking that's it
okay.
there's a process how actually the dhatu there is not piba the dhatu there is pa
oh
okay,
okay.
So panam okay, okay. Panam means drinking okay आनार्थं किं ददामि चायं काफी दुग्धं काफी मास्तु चायं ददातु चायम् आनयति चायं स्वीकरोतु स्पष्टं किल एतावत्
स्पष्टम्
अस्तु स्पष्टमिति मत्वा अग्रे सरेम प्रश्नः अस्ति वा
yeah Shekhar that mastu I'm still not clear like why is it na where is it man where is it na
present tense or future tense okay in lot what is lot lakara agnya or prarthana right tatra eva right. Ma ityasya prayogah ma
oh.
Means
okay.
Negation don't iti artha don't go don't drink okay. You are asking someone to do that
okay
right don't sit don't go don't bring don't wash when you all okay. These all things all in all these sentences you are asking someone else to do something tadartham ma not na when you are asking someone it is ma that's it think of it like that
okay fine okay got it yeah first one
for both agnya and prarthana
yes in lot that is why I said lot to be safe first time kila anantram kaushalya bhagini kripaya
abhishekah aho gaurava agachhatu स्वागतम अहं
दिनसल ए गौरव फ्रॉम हियर गौरव फ्रॉम हियर नगरस्य
गौरवः नगरस्य क्रीडांगणे विज्ञान प्रदर्शनी अस्ति अहं गच्छामि भवान् आगच्छति किम् अभिषेकः अद्य मम गृहे पूजा अस्ति अतः अहं न आगच्छामि क्षम्यताम् गौरवः चिन्ता मास्तु स तर्हि श्वः गमिष्यामः किम्
तिष्ठतु तिष्ठतु एतावता स्पष्टं वा नगरस्य क्रीडाङ्गणे विज्ञानप्रदर्शिनी सैन्स् एक्सिबिशन् विज्ञानप्रदर्शिनी अस्ति अहं गच्छामि भवान् आगच्छति किम् अद्य मम गृहे पूजा अस्ति अतः अतः नाम देर् फोर् अतः अहं न आगच्छामि क्षम्यतां सारि चिन्ता मास्तु सो दिस् इस् अगेन् रीसेण्ट् स्टैल् ऐ डोण्ट् काल् एवर् सीङ्ग् चिन्ता मास्तु ओके वि सेड् डोण्ट् वरि इट्स् ओके नाट् टु वरि कैण्ड् आफ् थिङ्ग् चिन्ता मास्तु तर्हि श्वः गमिष्यामः किं वयं गच्छामः प्रेसेण्ट् टेन्स् वर्तमानकालप्रयोगः वयं गमिष्यामः फ्यूचर् टेन्स् वयं श्वः श्वः मीन्स् टुमारो विल् डिस्कस् आल् दट् नेक्स्ट् वीक् तर्हि श्वः गमिष्यामः किं प्रश्नः पुनः तर्हि देन् श्वः गमिष्यामः किम्
गमिष्यामः मीन्स्
वाट् डिड् आई जस्ट् से
फ्यूचर टेन्स वी विल गो
आई एम नॉट कमिंग या सॉरी आई विल गो टुमारो या
नो नो नॉट आई वी वी गमिष्यामः गच्छामः गमिष्यामः वी
वी या
वयं श्वः गमिष्यामः किम् इति प्रश्नः
गमिष्यामः किम् सो कैन वी गो टुमारो
आम आम
ओके
यथा पूर्वोक्तं
तत्र मध्यमपुरुष उपयोगं नास्ति वा गमिष्यामः इस् बहुवचनं किल
द्विवचनस्य प्रयोगः किल द्विवचनस्य प्रयोगः किमर्थं नास्ति इति प्रश्नः किल अत्र आवां गमिष्यावः किमर्थं नास्ति किमर्थम् अत्र गमिष्यामः अस्ति इति प्रश्नः व्यवहारे अधुना तत्र प्रचलति तावदेव ऐडियलि यस् इट् शुड् बि मध्यमपुरुष बट् या विल् सी ईवन् स्कालर्स् आक्चुलि सेयिङ्ग् इन्स्टेड् आफ् यूसिङ्ग् द्विवचन दे यूस् बहुवचन इट्स् जस्ट् आक्सेप्टेड् नौ दट्स् इट् बट् इन् रियालिटि द द्विवचनम् इस् ऐडियल् And that doesn't mean that, you know, you should stop memorizing, you know, the Vivachanam forms. No, please do memorize the Vivachanam forms. Even every now and then, you know, if you, instead of using a Vivachanam form, if you say Bahuvachanam form, it's okay. It's accepted. No, that's it.
And Kshamyatam.
Kshamyatam nama sorry. Iti artha. Kimiti?
Oh, no. Kridangani.
Forgive me.
It's implicit again. Kshamyatam nama, yes, if you're saying sorry, of course, you know, you mean, you know, forgive me, right? When you're saying sorry.
Okay. Okay.
Yeah.
So, what Kridangana is Targi mean, Shekhaji?
One minute, please. Kridanganam nama playground. Kridangane, okay. Saptami Ekavachanam, Nagarasya Kridangane, Vijnana Pradarshini Asti.
Mm-hmm. Okay. So, I've been using the Kridashala or something. That's also, is it a valid word or I've been just adding like a Patashala, I added Kridashala in my
Kridashala means, Kridangana is more commonly used, but sure, you know.
Okay, fine. Yeah,
that's fine. Okay. Kridasthanam, Kridashala. Kridangana is more widely used, let me put it that way.
Okay, fine. Okay, got it.
Ravi, you had a question.
Tarhi means?
Then,
okay. Then we go tomorrow, okay.
Chastu. Agre kaha? Subhashini ji, rupaya. Shwaha? Abhishekaha, shwaha?
Abhishekaha. Swaha, agam, aham, agamishyami. Gauravaha, astu. तर्हि अहं गृहं गमिष्यामि पुनर्मिलामः अभिषेकः पुनर्मिलामः नमस्ते गौरवः नमस्ते
सम्भाषणं स्पष्टं किल? तत्र प्रत्येकमपि वाक्यं स्वीकृत्य तस्य अनुवादं मा कुर्वन्तु कृपया. इफ् यु लैक् ट्रान्स् इफ् यु ट्रै टु अण्डर्स्टाण्ड् ओन्लि बै ट्रान्स्लेटिङ्ग् एव्री सिङ्गल् सेण्टेन्स् गोन् बि अ नैट् मेर् मूविङ्ग् फार्वर्ड्. नौ यु नो दीस् कान्वर्सेशन्स् आर् आल् सिम्पल्, इट् प्राबब्लि विल् वर्क्, बट् नो लेटर् आन् इट् विल् नाट् वर्क्, यु विल् फेल् डेफिनेट्लि, ट्रस्ट् मी, एव्रिवन् विल् फेल्. No, don't do, don't try to translate every single sentence. Just try to understand the bhava there. If you sure, you know, if you understand, you know, why that vibhakti is used, we can discuss that. But try to understand the sentence as is. Awesome. Agree. Krupya, Subhashini Bhagini, Bhavati Eva Patasu.
Haman. Lata. Amba. बुभुक्षा भवति, शीघ्रं भोजनं परिवेशयतु.
परिवेशयतु.
अम्बा पुत्री प्रथमं गणवेशं परिवर्तयतु, हस्तं प्रक्षालयतु, अनन्तरं स्थालिकां चषकं च स्वीकरोतु. लता अस्तु अम्ब.
एकनिमिषम् तिष्ठतु कृपया. एतावत् स्पष्टं किल? गणवेशं, गणवेशः नाम तत्र यूनिफार्म् इति अर्थः. गणवेशं नपुंसकलिङ्गपदं. गणवेशं परिवर्तयतु, हस्तं प्रक्षालयतु. अस्तु, परिवर्तयति, परिवर्तयतु. परिवर्तयतु नाम चेञ्ज्. गणवेशं परिवर्तयतु. प्रथमं गणवेशं परिवर्तयतु, हस्तं प्रक्षालयतु, प्रक्षालयति, प्रक्षालयतु, प्रक्षालयति वाश्. अनन्तरं स्थालिकां, स्थालिका प्लेट्, स्थालिकां चषकं च स्वीकरोतु. पश्यतु अत्र स्थालिकां चषकं द्वितीयाविभक्तौ स्तः. इमे द्वे पदे स्थालिकां चषकं, स्थालिकां चषकं च स्वीकरोतु अथवा आनयतु किमपि. सत्यम्. अनन्तरम् अव्ययं पुनः सत्यम्. एतावत् स्पष्टमिति मन्ये. अनन्तरम् अम्ब.
परिवेशयतु मीन्स् सर्व् मी फुड्.
सत्यं सत्यं. परिवेशयतु, परिवेशयति, परिवेशयतु, भोजनं परिवेशयतु.
बुभुक्षा मीन्स् हंग्री, राइट?
हां. ओके. अम्बाजी कृपया.
अम्बा पुत्री जलं न स्वीकरोति किं, कथं भोजनं करोति? लता बहु बुभुक्षा अस्ति अम्बा, भवती एव ददातु. आ व्यञ्जनं कटुः अस्ति, अहं न कटुः अस्ति, अहं न खादामि. घृतं परिवेशयतु. घृतं परिवेशयतु.
अत्र एतत् वाक्यं स्पष्टं वा एतावत्? भवती एव ददातु. व्यञ्जनं नाम करी, कटुः स्पैसि व्यञ्जनं कटुः अस्ति, अहं न खादामि. घृतं नाम घी, नेय्यि, घृतं परिवेशयतु. अनन्तरं पठतु कृपया अग्रे.
अम्ब
कृपया पठतु कृपया भवत्येव.
अम्ब अस्तु त्वारं न करोति, त्वरां न करोतु, मन्दं भोजनं करोतु, दधि आवश्यकं किम्?
आवश्यकं
किम्?
एकनिमिषम्. अत्र मा करोतु इति भवेत्, न करोतु अस्ति, चिन्ता नास्ति, किन्तु सामान्यतया मा करोतु इति एव वाक्यं. त्वरा नाम हरि, त्वरां मा करोतु परां मा करोतु, अत्र न अस्ति जानामि, तथापि मा करोतु इति एव शुद्धं प्रयोगं, शुद्धप्रयोगः. त्वरां मा करोतु मन्दं, मन्दं नाम स्लोलि, अव्ययं पुनः, मन्दं भोजनं करोतु. नो, त्वरा इस् नाट् अव्ययं, नो, त्वरां मा करोतु पते द्वितीया विभक्तौ अस्ति किल, त्वरा नाम हरि. त्वराम् अस्ति किल तत्र सत्यं, किं मा करोतु, त्वरां मा करोतु. मा करोतु, I'm saying ma karotu, don't do something. What? Twara. Don't do twara.
Don't do it fast.
Yes. What? Don't. No, no, not don't do it fast. See, that is why I said do not translate.
No, no. I mean, yeah, that's right. You're telling your mom, don't hurry, I'll do slowly, something like that.
It's, it's like, you know, you're doing hurry.
Yeah.
In English, it sounds weird. But yeah. In sense, do not do hurry. Do not rush iti artha.
Yeah.
Oh, astu. So, karotu is the kriya. So, what is he doing? What should he not do?
He should not do rush. Or he should not do hurry. Yes, that's what it actually means. Clear so far?
Dadi means
curd.
Dadi.
Dadi. Dadi. Curd.
Dadi. Okay.
Da, no, no. Dadi.
Dadi.
First, Alpa Pranam, Anantaram Mahapranam. Dadi. Mandam, nama slowly. Adhyayamasti. Mandam, bhojanam, karotu. मन्दं भोजनं करोतु. दधि आवश्यकं किम्?
मन्दं भोजनं पदद्वयम् इति
सत्यं
द्वितीयविभक्ति
वा? न न, मन्दम् अव्ययं, मन्दम् अव्ययमस्ति, भोजनं द्वितीयविभक्ति, मन्दम् अव्ययमस्ति. Clear? Dadhi avashyakam kim? Okay. Anantam, Natajanji.
Okay. Lata. Mastu. Dadhi amlam bhavati. Supe lavanam अधिकम् अस्ति, अहं न इच्छामि शर्करां परिवेशयतु, शर्करां परिवेशयतु. अम्बा भवती तु मधुरप्रिया, स्वीकरोतु.
दधि आम्लं भवति, आम्लं न सौर् इति अर्थः, आम्लं भवति सौर्, एस् ओ यु आर्
ओ सौर्. ओके.
सूपः, सूपः नाम सूपः दाल् संथिङ्ग्, यस् सूपः इस् दाल् कैण्ड् थिङ्ग्. फ्यू यूस् सूपः फर् यु नो लैक् pulusu kind thing as well in Telugu, that's why.
Right, yeah, okay. Okay.
So is that no Sanskrit word or is that an actual Sanskrit word, supaha?
Yes, yes.
Or is it like soup in English?
No, supaha is a Sanskrit word.
English must have borrowed it, huh?
Yeah, supaha is a Sanskrit word.
Okay.
Lavanam, salt, adhikam asti.
Okay.
Okay. Soupe, लवणं कुत्र अधिकमस्ति लवणं कूपे अधिकमस्ति तु दधि कथमस्ति दधि आम्लमस्ति लवणम् अधिकमस्ति कुत्र सूपे अहं न इच्छामि शर्करां परिवेशयतु शर्करा आकारान्तस्त्रीलिङ्गपदं शर्करां द्वितीयाभक्तौ अस्ति अत्र शर्करां परिवेशयतु भवती तु मधुरप्रिया मधुरप्रिया नाम सत्यं मधुरप्रिया भवती तु मधुरप्रिया स्वीकरोतु स्पष्टं किल एतावता
What is that? Two, two.
Two is just a filler. I can't say what that is in Hindi. For in Telugu, it probably would mean something like Nuvvaite, Nuvvu Matram.
Oh, okay.
So in Hindi, it might be something like To.
Yeah, probably, yes.
Same thing. Yes, yes, that's right.
Yes. Tum To, yeah. My Hindi knowledge is very, very bad, so I don't want to like frighten you guys in any way. ओके स्पष्टं किल एतावता शङ्करजी अनन्तरं कृपया
अं लता अम्ब भोजनं समाप्तं हस्त प्रक्षालनं समाप्तम् अहं सखीगृहं गच्छामि अम्ब बहु आतपः अस्ति इदानीं मास्तु सायङ्काले गच्छतु गृहपाठः नास्ति किं तथा अस्ति अम्ब इदानीं गृहपाठं लिखामि
प्रथमं भोजनं समाप्तं हस्तप्रक्षालनं समाप्तं पुस्तकपठनं समाप्तं गृहाभ्य एवं रीत्या पुस्तकपठनं समाप्तं गृहाभ्यासः समाप्तः पुंलिङ्गपदमस्ति इत्यस्मात् समाप्तः भोजनं नपुंसकपदम् अतः भोजनं समाप्तं हस्तप्रक्षालनं समाप्तं गृहाभ्यासः समाप्तः एवं रीत्या
अहं सखी गृहं मीन्स् गोयिङ्ग् बेक् टु मै होम् सखी गृहं
गच्छामि अहं सखी गृहं गच्छामि सत्यं सखी गृहं फ्रेण्ड्स् हौस् इति अर्थः सखी गृहं
फ्रेण्ड्स् हौस् ओके
अहं सखी गृहं गच्छामि बहु आतपः आतपः नाम यः ग्रीष्मकाले घर्मः भवति आतपः आतपः अस्ति इदानीं मास्तु सायङ्काले गच्छतु कदा गच्छतु सायङ्काले गच्छतु गृहपाठः नास्ति किम् अस्ति अम्ब इदानीं नाम अधुना नौ इदानीम् अधुना बोत् मीन् नौ सम्प्रति आल्सो मीन्स् नौ इदानीम् अधुना सम्प्रति गृहपाठं लिखामि अथवा करोमि किमपि स्पष्टं वा
वन् क्वशन् एकप्रश्न समाप्तम् अर्थं फिनिश्
समाप्तं पदस्य अर्थः एण्डेड् इति अर्थः एण्ड्
ओके अण्ड् आतपः वाट् डिड् यु से ऐ डिन्ट् गेट् दट् बहु आतपः अस्ति
आतपः नाम हीट् हाट्
ओ हाट् ओके
क्लियर्
अस्तु
वाट् वास् अ थर्ड् वर्ड् फार् नौ यु सेड् इदानीं सम्प्रति And then?
Samprati, idanim,
aduna.
Thank you.
Okay. Astu. अस्तु सर्वे द्रष्टुं शक्नुवन्ति इति अहं भावयामि. शक्नुवन्ति किल सर्वे द्रष्टुं? Can you see my screen? अत्र शिवकवचस्तोत्रमस्ति अत्र. अत्र बहूनि लोट्लकाररूपाणि सन्ति अस्मिन् स्तोत्रे. आदौ एतावत्पर्यन्तं नागेन्द्रचर्मधर नागेन्द्रनिकेतन मृत्युञ्जय त्र्यम्बक त्रिपुरान्तक विश्वरूप विरूपाक्ष विश्वेश्वर वृषभवाहन विषविभूषण विश्वतोमुख सर्वतोमुख एतावत्पर्यन्तं शिवस्य स्तवनं करोति भक्तः. शिवं स्तौति हि प्रीतसिमिति अर्थः शिवं स्तौति. अनन्तरं तस्य इच्छां प्रकटयति भक्तः. तस्य इच्छां प्रकटयति किं प्रकटयति? मां रक्ष, मां रक्ष, रक्षति रक्ष, मां रक्ष. ज्वल 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 नाम कः अर्थः? ज्वलति नाम कः अर्थः?
फैर्.
हा
शैन्
शैन् शैन् प्रज्वल प्रज्वल
again.
प्रज्वल नाम इट्स् प्रकृष्टेन दट्स् इट् इट्स् वेरि प्रज्वलति नाम शैन् इट्स् मोर् लैक् वाट् नौ इतोपि ज्वलनं प्रज्वल प्रज्वल. महामृत्युभयं शमय शमय शमयति. अत्र पश्यतु सर्वत्रापि मध्यमपुरुष लोट् रूपाणि सन्ति. शमयति मम मृत्युं किमिति तत्र महामृत्युभयं शमय शमयति शमयति शमयतु भवान् शमयतु अथवा त्वं शमय. शमय नाम कः अर्थः?
गोयिङ्ग् डौन्
डिस्ट्राय् डिस्ट्राय्
डिस्ट्राय् न
डिस्ट्राय्
नो नो एनिवन् शमयति पदस्य अर्थः लेसन्
आर्
लेसन्
यस् लेसन् यस् लेसन् शमय शमय. महामृत्युभयं शमय शमय. अपमृत्युभयं नाशय नाशय. अपमृत्युभयं नाशय नाशय.
I'm sorry Shikharji, Shikhar, I didn't understand Mahamrityubhayam Shamaya Shamaya means what?
Mahamrityubhayam Shamaya, listen, I have this fear, okay?
Oh, okay, listen, okay, 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 fine,
yeah. Listen.
Okay, okay, fine.
Mahamrityubhayam Shamaya Shamaya. Apamrityubhayam Nasaya Nasaya. Apamrityuhu nama Sarandit.
Sarandit, yeah.
Oh.
Nasaya Nasaya. रोगभयम् उत्सादय उत्सादय उत्सादयति. डेस्ट्राय् इति एव अर्थः अत्रापि. उत्सादयति नाम डेस्ट्राय् इति एव अर्थः.
रोगभयं
नो नाशय इति नाम डेस्ट्राय् इति एव अर्थः. पुनः नाशनं करोति नाशयति. टु किल् टु डेस्ट्राय् इति एव अर्थः.
प्रकटयति
एक्स्प्रेस् प्रकटयति नाम एक्स्प्रेसिङ्ग्. नाशयति टु डेस्ट्राय् टु रिमूव् इति एव अर्थः भवति. अस्तु उत्सादय उत्सादय. रोगभयम् उत्सादय उत्सादय. विषसर्पभयं विषसर्पभयं शमय शमय. एतावत् स्पष्टं किल? चोरान् मारय मारय. चोरः नाम थीफ्. चोरान् मारय मारय किल् देम्. मम शत्रून् उच्छाटय उच्छाटय. उच्छाटयति कः अर्थः? एनिवन् दे ड्रैव् दम् अवे. उच्छाटय यु नो जस्ट् ड्रैव् दम् अवे. मम शत्रून् ऐ शुडन् सी देम्. कः अर्थः? दे शुड् इवन् कम् नियर्
मी
बिकास् यु नो यु आर् ड्रैविङ्ग् दम् अवे. यस् शत्रून् उच्छाटय उच्छाटय. त्रिशूलेन अत्र पश्यतु पुनः तृतीया विभक्तिः त्रिशूलेन विदारय विदारय विदारयति पदमस्ति विदारयति त्रिशूलेन विदारय विदारय विदार नाम टु लैक् ముక్కలు ముక్కలు చేయడం తెలుగులో విసే దట్ ముక్కలు ముక్కలు కద్దం ఇటు పీసెస్
టేర్ అపార్ట్
టేర్ అపార్ట్ ఎస్ త్రిశూలేన విదారయ విదారయ కుఠారః కుఠారః నామ
హాక్స్
ఉత్తమం ఎస్ కుఠారః కుఠారేణ కిమస్తి కుఠారేణ
భింది
భింది వితాక్స్ భింది భింది టు కట్ భింది నామ టు కట్ భినస్తి క్రియాపదమస్తి లోట్ మధ్యమ పురుషే భింది ఇది రూపం త్వం భింది
వాట్ ఇస్ ద క్రియాపదం
భినక్తి భినక్తి
భినక్తి
దే దీస్ ఆర్ ఎ లిటిల్ డిఫికల్ట్ బట్ యు జస్ట్ గెట్ ద భావ దేర్ దట్స్ ఇట్ కుఠారేణ భింది భింది ఖడ్గేన చింది చింది ఓకే వన్ ఇస్ విత్ కుఠార ద అదర్ వన్ ఇస్ ఖడ్గ ఖడ్గేన చింది చింది ఖట్వాంగ ఖట్వాంగ నామ ఏవన్ ఖట్వాంగ ఖట్వాంగి శివ రైట్ హిస్ శూల ఇస్ కాల్ ఖట్వాంగ హిస్ వెపన్ ఖట్వాంగేన విపోధయ విపోధయ విపోధయతి విపోధయతి విపోధానాం సేమ్ థింగ్ విపోధయతి ఇస్ టు అగైన్ యునో ఆల్ దీస్ మీన్స్ టు యాక్చువల్లీ డెస్ట్రాయ్ ఆర్ యునో టేర్ ఇన్ టు పీసెస్ బట్ యూజింగ్ కుఠార యుసే భింది యూజింగ్ ఖడ్గ యుసే చింది సోన సూపర్ దట్స్ ఇట్ ఖట్వాంగేన విపోధయ విపోధయ ముసల
ప్రశ్న తృతీయ విభక్తి ఇస్ ఇట్ నాట్ ద బిగ్ meaning the way it is written for kutarena but for trishulena and khatangena
yeah, okay. I see the question okay because the na in kutarena it's followed by ra you get na the big na
oh okay
na when followed by ra rakara gets sadharana
okay
okay so as long as it is not at the end of the sentence as long as it is not the end of the, it is not the end of the sentence or word whatever like for example like choran right even after ra you have na but choran nu is the last letter that is why it is still na but in kutarena you have nu and also you have akara at later so that is why it is na there
okay
yes ముసలేన ముసలహ నామ పెసిల్
లైక్ అ బ్లే మేస్
నో మోటార్ అండ్ పెసిల్ దట్ స్టిక్ విత్ విచ్ యు పౌండ్
ఓకే 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 ఫైన్ విచ్ వి బ్రేక్ ఇంటు స్మాలర్ రిపోర్ట్
ఆఫ్ ది బాడి ద దట్ థింగ్ యు విల్ సెపరేట్ ఫ్రమ్ ద రైస్ దట్ వన్
yes 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 ముసలేన నిష్పేషయ నిష్పేషయతి మీన్స్ టు క్రష్ సంథింగ్ ముసలేన నిష్పేషయ నిష్పేషయ బాణః బాణైహి బాణైహి సంతాడయ సంతాడయ సంతాడయతి తాడయతి మీన్స్ ఎవ్రీవన్ నోస్ దట్ తాడయతి సంతాడయతి సంతాడయతి మీన్స్ యు నో ఇట్స్ టు స్ట్రైక్ దెమ్ టు స్ట్రైక్ సమ్వన్ బాణైహి బాణైహి సంతాడయ సంతాడయ యక్ష రక్షాంసి భీషయ భీషయ భీషయతి భీషయతి యక్షాంసి భీషయతి భీషయతి ఎనివన్
భీతిహి
ఫ్రైటన్ ఇది అర్థ ఫ్రైటన్ దెం భీషయ భీషయతి భీషయ భీషయ ఓకే రక్షాంసి మీన్స్ రాక్షసాస్ భీషయ భీషయ ఓకే అశేష భూతాన్ అశేష సో అప్ అంటిల్ హియర్ సీ హీ టాక్డ్ అబౌట్ శత్రుస్ హీ టాక్డ్ అబౌట్ ఆల్ ద భయాస్ సోన్ అండ్ సో ఫోర్త్ రైట్ Asesha Bhutan, if there is anything else left, Asesha means remainders. Asesha Bhutan, Vidravaya, Vidravaya.
Vidravaya. So, Yaksha is not really Rakshasa.
No, Yaksha is not Rakshasa here. Rakshas is Rakshasa. Yaksha here means actually ghost, I think. It's all spirits. It just means Yaksha.
It's another kind of being.
Yes, yes. Rakshas means Rakshasas. Rakshas means Rakshasas. Yaksha means some kind of ghost, as far as I know. It's some kind of a ghost.
Dictionary says demigod.
That is also there. Sure, that is also there. But I don't see, you know, why you would want to actually kill the demigods here. But in here, in this context, it should be some kind of a ghost. Iti arthaha. Okay. Vidravaya. Vidravayati. Vidravayati namakahardaha. To drive them away punaha sahevardaha. Vidravaya, vidravaya. Okay. Kushmanda Bhuta Vetala Vetala Marigana. Vetala Marigana. This is some gana there. Let's not talk about that. Brahma Rakshasa Ganan Santrasaya Santrasaya. Brahma Rakshasa Gatan. Brahma Rakshasa Gatan. Santrasayati. Santrasaya Santrasaya. Santrasayati nama punaha. To terrify them idiyavardha. Mama, abhayam, kuru, kuru.
Santrasayati.
Yes, but it's no. Santrasayati. There is protect, trayate, to protect. Trasayati is different again. Santrasayati is different. There's an upasarga there. Okay. Santrasaya, santrasaya. Mama, abhayam, kuru, kuru. Mama, abhayam, karotu. Mama, abhayam, kuru, kuru. Mama papam shodhaya shodhaya shodhayati nama to clean. Mama papam shodhaya shodhaya. Vitrastam mam ashvasaya ashvasaya. Ashvasaya? Ashvasayati. To comfort someone.
To relax. Okay.
To relax someone. Yes. Sahevantaha. Mam ashvasaya ashvasaya. Vitrastaha. Nama kahardaha. Someone who is scared is called Vitrastaha. Aham Vitrastaha Asmi. Anju, Athava Srilinge Vitrastha. Padmaja Vitrastha Asti. Evam Ritya Vakyani. Aham Vitrastaha Asmi. Ataha Vitrastam Mam Ashvasaya Ashvasaya. Naraka Mahabhayan Mam Uddhara Uddhara. Lift Uddharati. Lift. Mam Uddhara Uddhara. Amruta Kataksha Vikshanena. Amruta Kataksha Vikshanena. Kataksham Nama, anyone? Any better word for English?
The end of
Blessing. Grace.
Bless.
Blessing or grace.
Everyone knows what Kataksham means, right?
Yeah.
Okay.
Yeah.
Aksham
means eye, right?
Akshi means
ice. Akshi.
Kataksha means looks at someone with anger.
No. Kataksha means not with anger, no.
By sight.
No?
Kataksha Vikshanena. Amruta Kataksha Vikshanena means I lack the skill to translate.
Bless me, bless me. Yeah. Something like bless me with a no
embodiment of.
No, bless me with the by just seeing with the end of your eye.
No. Amrita Kataksha Vikshana. No. You are getting into
embodiment.
Here. No, that's not
embodiment of something.
Amrita means bless me the Ardha.
Not death, right?
Let me put it that way.
Yeah.
Huh?
Yeah. Amrita
embodiment
means basically. Bless me without death. That's what it means, right? Amrita is without death. Immortal. Yeah, correct. And Kataksha means give me a. Deathless life.
Kind, that's Asmin, the kind, I mean, you know, show with your lovely eyes, show some empathy kind of thing. Amrita Kataksha Vikshena, Mam, Alokaya, Alokayati means to see, Pashyati Tiyavardha, Alokaya, Alokaya, Sanjeevaya, Sanjeevaya, Sutrushnartham, Mam, ఆప్యాయయ ఆప్యాయయ ఆప్యాయయతి దిస్ ఇస్ ఎ వెరీ కామన్ వర్డ్ ఇన్ తెలుగు ఆప్యాయయ ఆప్యాయయ ఆప్యాయయతి మీన్స్ టు యునో సత్యం ఆప్యాయయ ఆప్యాయయ దుఃఖాతురం మాం ఆనందయ ఆనందయ దుఃఖాతురః దుఃఖాతురః సమ్మన్ హూ ఇస్ ఫిల్డ్ విత్ దుఃఖ ఆర్ సమ్మన్ హూ పొసెస్డ్ దుఃఖ దుఃఖేన అతురః లైక్ అఫ్లిక్టెడ్ బై దుఃఖ ఓకే దుఃఖాతురం మాం ఆనందయ ఆనందయ మేక్ మీ హ్యాపీ ఆనందయ ఆనందయ శివ కవచేన మాం ఆచ్ఛాదయ 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 మీన్స్ టు కవర్ ఓకే I said all these things, right? Cover me with everything like this. With all these things, protect me.
So, Acharya is also same?
No. Acharya va? Maybe. Achadaya. Maybe it actually came from this word. I don't know. Yeah, maybe. Sure.
And Sanjeevaya is ikkite?
Sanjeevaya. What is Sanjeevini?
Life.
Pashyati, yati is coming, and then some words is without the yati. So is there something difference between that?
Yes, there is difference. Like for example, someone said a sentence last week, Vastram Sushyati, Amba Vastram Sushyati. I think someone said the sentence, I don't recall who it
was. Yes. Natarajan Mahodaya said that, I think. Shushyat, that means you are doing it and you said
if
it's without the yati, then it is doing it by itself.
Yes. Sushyati, Vastram Sushyati. But Amba will never, Amba Vastram Soshayati. She will dry them up. Vastram Sushyati means, you know, Vastram by itself is Sushyati. It's drying up. If I say Soshayati, it means that, you know, someone else is actually doing it. Yatha aham natarajaha pathati. Natarajaha pathati. Shekaraha pathayati. Udaharnaya phalam patati. Phalam patati nama kahartaha?
It is falling.
Fall.
Falling.
Kintu balakaha phalam patayati. సో తదర్థమేవ అత్ర కుత్రచిత్ కిమితి సంతాడయ సంతాడయ ఏవం రీత్యా అంతే శమయ శమయ ఇట్ డిపెండ్స్ అపాన్ ద రూట్ ఆఫ్ ద ఇట్ డిపెండ్స్ అపాన్ ద వాట్ నౌ ద ధాతు దేర్ అండ్ ద ఫామ్ ఇట్ ఇస్ శమయతి సో ఇట్ ఇస్ శమయ ఇట్ ఇస్ సంతాడయతి అత సంతాడయ ఉద్ధరతి ఉద్ధర ఇన్ ఫ్యూ యు హ్యావ్ య ఇన్ ఫ్యూ యు డోంట్ హ్యావ్ య బికాస్ ఇట్ డిపెండ్స్ ఆన్ ద
బై హార్ట్
నో యు విల్ నో ద ఫార్మ్స్ ఐ మీన్ ఇఫ్ యు నో ఉద్ధరతి యు నో ఇట్ ఇస్ గోయింగ్ టు బి ఉద్ధర దట్స్ ఇట్
నో సపోజ్ ఇఫ్ ఐ యామ్ సేయింగ్ పిబతి డజంట్ హావ్ ద పిబయతి రైట్ సో దట్ ఇస్
నో దట్స్ ఐ థింక్ యు నో ద వర్డ్ ఇస్ పిబతి రైట్ వై వుడ్ యు యాడ్ అ యా టు ఇట్ If you know the word pibati, you wouldn't add the word another letter to it, because you already know the form it is pibati. Just say pibati, that's it.
Okay.
Because the word here is santadayati, you know it is santadayati, so you just remove the ti there, santadaya, that's it.
So we have to know like it is pibati, it is pashyati, like that, we have to know.
Well, without knowing the words, how can you be possible even converse? You have to know those words, right?
Okay. No, I am asking, is there like a trick or something to know which one has a yati and which doesn't?
that trick is much much worse. You think it is a trick, it's a curse actually. Don't even get there.
Okay.
Okay, you will need a lot of vyakaram to actually see where you will get ya and where you will not get ya. You need to know what the dhatu is, which gana it is in. That's just a mess. Don't even get there for now.
Okay.
It is not a trick by any ways, don't worry. Eta ta spashtam va?
Spashtam.
Astu.
Astu. Adya tarhi samapayama. ప్రశ్నాః సంతి చేత్ పృచ్ఛంతు అథవా సమాపయామ.